राम 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 सर्वेभ्यः, सुस्वागतम्। I hope you are able to see my screen now. So welcome to the class today. दीर्घश्वासः ओंकारः ध्यायन्ति योगिनः कामदं मोक्षदं चैव ओंकाराय नमो नमः। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो। कार्तस्वरनिभदेहः कीर्तनमात्रेण दूतसकलाघः आर्तस्वरजनशरणं मूर्धतयारूपगुरुवरेण्योऽव्यात् सदात्मध्याननिरतं विषयेभ्यः परान्मुखं नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् विवेकिनं महाप्रज्ञं धैर्यं कार्यक्षमानिधिं सदाभिनवपूर्वन्तं विद्यातीर्थगुरुं भजे। अज्ञानां जाह्नवीतीर्थं विद्यातीर्थं विवेकिनां सर्वेषां सुखदं तीर्थम् आरतीतीर्थमापन्नम् हितरागं विवेकिनम् वेदान्ततत्त्वज्ञं विधुशेखरभारतीं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। अगजानन पद्मार्कं गजानन महर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे। वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। वागीशाद्यास्सु मनसः सर्वार्थानामुपक्रमे यन्न त्वा कृतकृत्या स्युः तं नमामि गजाननं। सरस्वति नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। नमस्ते शारदे देवि काश्मीरपुरवासिनि त्वामहं प्रार्थये नित्यं विद्यां बुद्धिं च देहि मे। शारदाम्भोजवदनावदनाम्बुजे सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये हरलीलावताराय शङ्कराय महौजसे कैवल्यकलनाकल्पतरवे गुरवे नमः रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् तस्य निःसरते वाणी जह्नुकन्या प्रवाहवत् असाध्यसाधकस्वामिन् असाध्यं तव किं वद रामदूतदया सिन्धो मत्कार्यं साधय प्रभो विना वेङ्कटेशं धनाथो धनाथः सदा वेङ्कटेशं स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ राम 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 इदानीं कोऽपि वक्तुं शक्यते वा कोऽपि वदति वा प्रार्थनाश्लोकाः एकनिमिषं भोः भवान् म्यूट् कृतवान् इति मन्ये वेङ्कटमहोदय
गुर्वाष्टकं वक्तुं शक्यते
आम् अस्तु अस्तु कोऽपि कोऽपि एनिवन् वाफर् ओके ज्योतिका यू केन् स्टार्ट् द फस्ट् श्लोक या
शरीरं सुरूपं तथा वाकलत्रं यशष्टारुचित्रं धनं मेरुतुल्यं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्
उत्तमम् उत्तमम् जय गणेश अग्रिमश्लोकः वक्तुं शक्यते
धनं पुत्र पौत्रादि सर्वं गृहं बान्धवा सर्वमेतत्ति जातं मनश्चेन लग्नं गुरोरङ्ग्रिपद्मे तदा
अति उत्तमं धन्यवादाः देवी उमाशङ्कर
मुखे शास्त्रविद्या
अति
उत्तमं धन्यवादाः धन्यवादाः इदानीं सर्वेश् किशोर् वक्तुं शक्यते वा अग्रिमश्लोकं विदेशेषु मान्य
विदेशेषु मान्य स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्.
धन्यवादाः. कोऽपि वक्तुं शक्यते वा? ऐ एम् ओके. अरुन्धति
श्यामामण्डले भूपभूपालवृन्दै सदा सेवितं यस्य पादारविन्दम् मनश्चेन लग्नं गुरोरङ्गिपद्मे तत किं तत किं तत किं तत किम्.
उत्तमम् उत्तमं कृति.
धन्यवादाः. श्रुति साहिति अग्रिमश्लोकम्.
यशो यशो मे गतं दिक्षु धान्या प्रतापात् जगद्वस्तु सर्वं परेय प्रसादात् मनश्चेन्न लग्नं गुरोरं पद्मे ततः किं ततः किं
ततः किं. अति उत्तमं. धन्यवादाः. उपयोक्तुं शक्यते वा अग्रिमश्लोकम्? ऐ एम् नाट् सीङ्ग् एनी अदर् हेण्ड्स्. ओके, ज्योतिका. ज्योतिका न भोगे.
न भोगेन योगेन वा वाजिराजौ न कान्तामुखेनैव वित्तेषु चित्तम् मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्.
अति उत्तमं. धन्यवादाः ज्योतिका. अन्ये कोऽपि वक्तुं शक्यते वा? ऐ एम् नाट् सीङ्ग् एनी अदर् हेण्ड्स् रेस्ड्. केन् समवन् प्लीस् कम् अप्? ऐ थिङ्क् वी हेव् वन् मोर् श्लोक टु मोर् श्लोकास् लेफ्ट् औट्. प्लीस् रेस् यर् हेण्ड्स्. अदर्स् प्लीस् बि आक्टिव्, वेरि आक्टिव् इन् दिस् फोरम्. स्मिता स्मिता शेषाद्रि.
न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम्.
धन्यवादाः. अति उत्तमम्. वी हेव् वन् मोर् श्लोक लेफ्ट् औट्. वी हेव् द लास्ट् दिस् इस् द लास्ट् श्लोक.
सर्वे मिलित्वा वदामः. आम्
गुरोरष्टकस्य
यतिर्भूपतिर्ब्रह्मचारी च गेहि लभे त्वाञ्चितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् गुरोरुक्तवाक्ये मनो यस्य लग्नम्.
उत्तमम्.
गुरोरुक्तवाक्ये मनो यस्य लग्नम्. इदानीं गणेश महागणेशपञ्चरत्नस्तोत्रं वदामः
एकैकशः.
एकैकशः. अस्तु अस्तु. आम्, वि विल् स्टार्ट् फ्रम् जय गणेश. लेट्स् स्टार्ट् फ्रम् ऐ थिङ्क् युर् सेल्फ् म्यूटेड्.
मोदकं सदाकम् कलादरावतं सकं विलासि लोकरक्षकम् अनायकैकनायकं विनाशिते दैत्यकं नाशकं नमामि तं विनायकम्.
अति उत्तमं. धन्यवादाः. ज्योतिका
अग्रिमश्लोकम्. याति भीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नतादिकापदुद्धरं सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम्।
उत्तमम् उत्तमम् अति उत्तमम्।
सर्वेश किशोर
समस्त लोक शंकरं निरस्त दैत्यकुञ्जरं परे दरोदरं वरं परे वक्रमक्षरं कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्करम्।
अकीर्तनातिमार्जनं चिरन्तनोति भाजनं पुरारि पूर्वनन्दनं सुरारि गर्वचर्वणम् प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलधारमावरणं भजे पुराणवारणम्।
धन्यवादाः। We have anyone? देवी उमाशंकर।
दन्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिन्त्यरूपमन्तरीनमन्तरगाय कृन्तरम् हृदान्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम्।
धन्यवादाः। उत्तमम्। इदानीम् उपयोक्तुं शक्यते वा? मिलित्वा वदामः वा वेङ्कटमहोदय?
गणेश पञ्चरत्नमादरेण यो प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोचिरात्।
इदानीं शारदा जन्मं वदामः। अगेन् केन् यू प्लीज़् स्टार्ट् रेसिङ्ग् योर् हेण्ड्स्। यू केन् स्टार्ट्। ओके। धृति अरुन्धति धृति
पूर्णकुम्भं प्रकुण्यावलम्बेन्द्रबिन्दं सदानोष्ठबिन्दं भजे शारदाम्बां।
धन्यवादाः। देवी उमाशङ्कर।
दयाद्रां करे ज्ञानमुद्रां कलापैः सुभद्रां सुरस्त्रीं पुरस्तृङ्गभद्रां भजे शारदाम्बामजस्रं मदम्बाम्। ललामाङ्कफालां लसत्कानलोलां स्वभक्तै कपालां यशस्वी कपोलां करित्वा क्षमालां कनत् प्रत्नलोलां कजिशारदाम्बामचस्रं मदम्बाम्।
धन्यवाद।
सीमन्तवेणीं दृशानर्जितेनीं रमत्क्षीरवाणीं नमद्वज्रपाणिं सुधामन्तरास्यं मुदा चिन्त्यवेणीं भजे शारदाम्बाम् अजस्रं मदम्बाम्।
धन्यवादाः। शार्वरी
शान्तां सुदेहां कल्लतामनन्तां ऋतां तापसी सर्गपूर्वस्थितां भजे शारदाम्बां अजस्रं मदम्बाम्।
उत्तमं। धन्यवादाः। कोऽपि अस्ति वा? पुरङ्गे तुरङ्गे कोऽपि वदति वा इदानीं? विल् समवन् वांट टु से? ऐ एम नॉट सीइंग मच अदर हैंड्स रेज्ड। श्रुति स्मिता शेषाद्रि ओके।
पुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे मराले मदेपे महोक्षेधिरूढां महत्यां नवम्यां सदा सामरूपां भजे शारदाम्बामजस्रं मदम्बाम्।
उत्तमं। धन्यवादाः। श्रुति
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं भजन्मानसाम्भोज सुव्रतभृङ्गीं निजस्तोत्रसङ्गीतं नित्याप्रभाङ्गीं भजे शारदाम्बामजस्रं मदम्बाम्।
पुनः एकवारम् अहम् इदानीं श्लोकं पाठयामि। ऐ विल् टीच् यू वन्स् अगेन्। प्लीज् या प्लीज् प्लीज् रिपीट् दिस् देन् वी केन् यु केन् जायिन् मी इन् रिपीटिङ्ग् दिस् ट्वैस् ओके। अदर्स् आल्सो केन् रिपीट्। यु आर् अन्म्यूट् श्रुति। यु केन् रिपीट् इट् ट्वैस् ओके। ज्वलत्कान्तिवह्निं
ज्वलत्कान्तिवह्निं
जगन्मोहनाङ्गीं
भजन्मानसाम्भोज भजन्मानसाम्भोज जगन् भजन्मानसाम्भोज
सुभ्रान्तभृङ्गीं निजस्तोत्रसङ्गीत
निजस्तोत्रसङ्गीत
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं
నిజస్తోత్రసంగీతనృత్యప్రభాంగీం
భజే శారదాంబామజస్రమ్మదంబాం
భజే శారదాంబామజస్రమ్మదంబాం
భజే శారదాంబామజస్రమ్మదంబాం
గైస్ థ్యాంక్ యూ శృతి ఓన్లీ యూ హావ్ టు లిసన్ టు ది మహాప్రాణ వేర్ ఎవర్ వి హావ్ ది మహాప్రాణ we should be always very very careful while saying the mahaprana bhajan manam bod subhramta dringi nijastotra sangeeta nritya prabhangi bhaje sharadama manasam thank you very much thanks katha ekam asti va vikat mohoday
katha adya nasti
अस्तु इदानीं क्रीडां क्रीडामः एकनिमिषम् अहं क्रीडामध्ये गच्छामि let's do a revision of Pakshi Varga today. It's been long time we did the Pakshi Varga, then we do a revision of Pakshi Varga. Let's repeat that. Ka kaha chata kaha
kapotaha
mayurah
kokilah
kokilah
hamsah
bakah bakah
shukah
shukah
kukutah
kukutah
उदूकः
लूकः
गृध्रः
गृध्रः
दार्वाघाटः
दार्वाघाटः
कादम्बः
कादम्बः
उष्ट्रपक्षी
उष्ट्रपक्षी
श्येनः
श्येनः
चक्रवाकः समुद्रकुक्कुटः
मीनरंगः
सुपर्णः चिल्लः
चातकः
कुक्कुटी बलाकः
वर्तिका
पाशगलः
ओके वी आर डन विद ऑल द वर्ड्स नाउ सो आई थिंक लेट्स गो टू द गेम्स पार्ट ऑफ इट और द अभ्यास पार्ट ऑफ इट let's go to the Abhyasa one. I think I need your participation here now. Okay, let's go one by one. So start raising your hands now. Okay, let's, I'm still not seeing the hands raised. Jyotika, yeah, can we do this now? Yes. Jyotika, you can start.
Ushtrapakshi.
Which one is Ushtrapakshi? The first one?
No.
Where I have to, let's go from Gridra. Where is Gridra? Can someone tell me? Where is Gridra? Okay, at least tell me which one you know. What is this?
Shukaha.
Shukaha, very good. Okay, let's see. Okay, very nice. Shukaha parrot, okay. Next one. Okay, so let's go to any hands raised here. Shruti. Shruti, you're on self mute. Okay.
Shenaha is the eagle.
Shenaha, where is that?
It is near the parrot.
Near the parrot. Is this the one?
Yes.
Sure? No.
Top one.
The top, top one, the top one.
Okay, good. Good. Very nice. Okay, next one.
Gridraha. Gridraha.
Where is Gridraha?
Left.
Gridraha is the left side.
Left to your parrot.
Down the hawk.
Gridraha. Okay. Okay, we have two more left. Where is Ushtrapakshi?
Ushtrapakshi is an ostrich.
Which one?
Left side.
The black colored one. Black and white one.
Oh, okay, Ushtrapakshi, ostrich. Very nice. So we have Tirihi. Very nice. Very nice. Thank you so much. So which is the, okay, let's go to, thanks Shruti. Thank you so much. Very, very well done. And any hands raised? I am not seeing any hands raised. I want your active participation. Come on, fast. We are running out of time now. I am not seeing the hands raised. Okay, Arundhati. Very nice. Dhriti, okay.
Kukuti.
Sorry?
Ketakaha is which one?
The third one.
Are you sure? Third one. Oh, very good. So very nice. Very nice.
Kokilaha.
Okay, which one is Kokilaha now?
Kumpaha. Kokilaha.
Kokilaha.
No. Kokilaha.
What is the word they say?
Kokilaha.
Kokilaha.
This is Mayuraha, this is Gridraha. Can I try this?
No.
Okay, very good, nice.
Kakaha. Kakaha.
This is the very easy, very simple.
Last one,
very good, super, very nice. Thank you.
Udukaha.
This is also very easy.
Udukaha. 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 Udukaha.
Shikram. Samayam nasti vani.
Udukaha.
Okay, anyone else? Thank you, Dhriti. Akshaya Hariharan.
Is this the second one?
Is it the second? This is the one?
Yeah.
No. Can you try the other one? Uluka is what?
The first one?
No. The first one is Shukaha. Oh. What do you mean by ulukaha? Ulukaha is owl.
Oh.
Okay.
Mayuraha.
Let's try this. This is very simple. Can you try this?
The first one?
First one. Very nice. Thank you. Very nice. Mayuraha.
Utaha. 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 Utaha.
Okay. Thank you very much. Okay, can we try? Who can say this? Okay. Shruti, can you try? Shruti Sahiti?
Shukaha.
Shukaha is a parrot. The second one.
The second one. Very nice. Very good.
Kukuti.
Kukuti is a hen. The third one.
Third one. Very nice. Thank you.
Uparnaha.
Suparnaha.
Uparnaha.
Eagle.
Where is it?
Third one, eagle.
Are you sure? Very nice. Thank you.
Nirantaha.
This is very easy.
Sir, can you repeat it?
Meenarangaha.
The first English term.
Okay.
Neelarangaha.
Neelarangaha. Sorry, Neelarangaha, not Neelarangaha.
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 What is this?
Hamsaha.
Hamsa.
Hamsa, the first one. The white.
Very nice. Thank you. Very good. Okay, next go. Let's go to the next one now. Shabdam Patti. Okay. So, which is the... Okay, let's go to the... Next participant here, we have Jyotika. Can you try?
Sir, the first one.
Bakaha. Okay, very nice. Next. Darvaghataha.
Third one.
No, sorry. This is Darvaghataha, woodpecker. Okay, good. Okay, next one. This is very easy. Kapotaha.
Second one.
Second one. Very nice. Kapotaha. Next one. This one. Kukkutaha.
First one.
First one. Very nice. Kutaha. Kadambaha.
First one.
Sorry. Kadambaha. Duck. Okay. Sarika. Okay. Anyone wants to try? Devi Umashankar, can you try? Sarika. Last one. Oh, very good. Sarika, Maina. Okay. Pashagataha.
First one.
Very nice. Pashagataha, pelican. Very nice. Vartika.
First one.
One. Wow, super. Vartika. Balakaha.
First one.
Balakaha. First one. Very nice. Thank you. Bulbulaha.
Last one.
Very good. Thank you. Thank you so much. Very nice participation. Okay. So let's close this game now. Okay. And let's go to the let's go to the bhajan part of it. Let's sing some bhajans today. And I think we should be able to sing some one or two bhajans. Before this, I think there is only one bhajan here. Before that, I have let's sing. Before this, let's sing the other Rama bhajan, and then we can go to this bhajan. We will, you know, revise this bhajan. Janaki Kanta Smaranam Jaya Jaya Rama Rama Namah Parvati Pataye Hara Hara Mahadeva Gopika Jeevan Smaranam Govinda Govinda Sadguru Swaminaha Jai Anjaneya Swaminaha Jai Parvati Nandana Bala Ganesha Parvati Nandana Bala Ganesha Vighna Vinasha Varada Ganesha Vighna Vinasha Varada Ganesha Suramuni Vandita Sumukha Ganesha Suramuni Vandita Sumukha Ganesha Sundara Vadana Jnana Ganesha Sundara Vadana Jnana Ganesha Parvati Nandana Bala Ganesha Vinayaka Murti Ki Jai Jaya Jaya Devi Dayana Hari Jaya Jaya Devi Dayana Hari. Can someone repeat with me? Can someone please raise your hands? Sharvari. Okay. Sharvari, can you please repeat with me? Jaya Jaya Devi Dayana Hari.
Jaya Jaya Devi Dayana Hari.
Janani Saraswati Palaya Maam.
Janani Saraswati Palaya Maam.
Amale Kamala Sana Sahite.
Amale Kamala Sana Sahite.
Amale Kamala Sana Sahite.
Amale Kamala Sana Sahite.
Adbhuta Charite Palaya Maam.
Adbhuta Charite Palaya Maam.
Adbhuta Charite Palaya Maam.
Adbhuta Charite Palaya Maam.
Matar Mangala Gunashale.
Matar Mangala Gunashale.
Anognya Shile
Palaya Maam.
Kirita Kundala Sushobhite.
Kirita Kundala Sushobhite.
Kirita Kundala Sushobhite.
Kirita Kundala Sushobhite.
Innaragite
palaya maam.
Innaragite palaya maam.
Innaragite palaya maam.
Jaya Jaya Devi Dayana Hari.
Jaya Jaya Devi Dayana Hari.
Janani Saraswati Palaya Maam.
Vagdevi Ki
Jai.
Vagdevi Ki Jai.
So next bhajan, let's go to Subramanya Swami. Anybody wants to Jyotika, can you repeat with me? Kartikeya Kali Yuga Varada.
Kartikeya Kali Yuga Vadana.
Kanda Kumara Karuna Karane.
Kanda Kumara Karuna Karane.
Kanda Kumara Karuna Karane.
Vel
Muruga, Vetri Vel Muruga. வேல் வேல் முருகா வெற்றி வேல் முருகா
வேல் முருகா வெற்றி முருகா
பாவா முருகா மதிவேழகா
பாவா முருகா வடிவேலகா
பாவா முருகா வடிவேழகா
பாவா முருகா வடிவேலகா
கார்த்திகேய கலியுக வரதா
கார்த்திகேய கலியுக வதனா
பந்தா குமர கருணாகரனே வேல் வேல் முருகா வெற்றி வேல் முருகா
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 ஜெய கணேஷ் கேன் யூ ரிபீட் திஸ் வித் மீ கோமல சரணம் சீதல சரணம்
கோமல சரணம்
சீதல சரணம்
கோமல சரணம் சீதல சரணம்
மஞ்சுள சரணம் மம குரு சரணம்
மஞ்சுள சரணம் மம குரு சரணம்
மஞ்சுள சரணம் மம குரு சரணம்
மஞ்சுள சரணம் சரணம்
அத்புத சரணம் அனுகிரக சரணம்
அத்புத சரணம் அனுகிரக சரணம்
அத்புத சரணம் அனுகிரக சரணம்
அத்புத சரணம் அனுகிரக சரணம்
சத்குரு சரணம் சதா பஜாம்யஹம்
சத்குரு சரணம் சதா பஜாம்யஹம்
சத்குரு சரணம் சதா பஜாம்யஹம்
சத்குரு சரணம் சதா பஜாம்யஹம்
கோமல சரணம் சீதல சரணம்
கோமல சரணம் சீதல சரணம்
மஞ்சுள சரணம் மம குரு சரணம்
மஞ்சுள சரணம் மம குரு சரணம்
அத்புத சரணம் அனுகிரக சரணம்
அத்புத சரணம் அனுகிரக சரணம்
சத்குரு சரணம் சதா பஜாம்யஹம்
சத்குரு சரணம் சதா பஜாம்யஹம் சத்குரு சரணம் சதா பஜாம்யஹம்
சத்குரு ஸ்வாமினஹ
ஜெய்
தன்யவாதாஹ தன்யவாதாஹ ராம் 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 அதி உத்தமம் can I see some more hands raised? Can someone please join me for Rama? I'm not seeing new hands. Can someone please raise their hands? Shruti. Okay. Dhruti.
Manoj Mahadeya, Prarthana. Can we ask some of the students to sing any bhajan? Yadi yate yat kimapi.
Saptam shakyate va. Anyone wants to sing any bhajan?
முரளி கிருஷ்ண மோகன கிருஷ்ண கோபால கிருஷ்ண
ದೇವಿ ಉಮಾಶಂಕರ್
ಜೈ ಗಣೇಶ್ ಎನಿವನ್ ಎಲ್ಸ್ ಜೈ ಗಣೇಶ್ ಐ ಥಿಂಕ್ ಯುವರ್ ಸೆಲ್ಫ್ ಮ್ಯೂಟೆಡ್
ಅಂಬಾಭವಾನಿ ಶರದೆ ಜಗದಂಬಾ ಭವಾನಿ ಶರದೆ ಶಂಕರ ಪೂಜಿತ ಶರದೆ ಶೃಂಗ ನಿವಾಸಿನಿ ಶರದೆ ಶಂಕರ ಪೂಜಿತ ಶರದೆ ಶೃಂಗ ನಿವಾಸಿನಿ ಶರದೆ ಪುಸ್ತಕ ಹಸ್ತೆ ಶರದೆ ವೀಣಾ ಪಾಣಿ ಶರದೆ ಪುಸ್ತಕ ಹಸ್ತೆ ಶರದೆ ವೀಣಾ ಪಾಣಿ ಶರದೆ ಮಯೂರ ಗಮನಿ ಶರದೆ ಹಂಸವಾಹಿನಿ ಶರದೆ ಮಯೂರ ಗಮನಿ ಶರದೆ ಹಂಸವಾಹಿನಿ ಶರದೆ ಅಂಬಾ ಭವಾನಿ ಶರದೆ ಜಗದಂಬಾ ಭವಾನಿ ಶರದೆ ಜಗದಂಬಾ ಭವಾನಿ ಶರದೆ ಜಗದಂಬಾ ಭವಾನಿ ಶರದೆ ಜಯ ಶಕ್ತಿ ದೇವಿಕಿ
ಜಯ
ಧನ್ಯವಾದ
ಧನ್ಯವಾದ
ಕಹ ವದತಿ ಇದಾನಿಂ
ಸುಭದ್ರಾ
ಸುಭದ್ರಾ
ದೇವಿ ಉಮಾಶಂಕರ್
ಸುಭದ್ರಾ
ಪಶುಪತಿ ನಂದನ ರಾಮ ರಾಮ ಪಾಪ ವಿಮೋಚನ ರಾಮ ರಾಮ ಲಕ್ಷ್ಮಣ ಸೇವಿತ ರಾಮ ಲಕ್ಷ್ಮೀ ಮನೋಹರ ರಾಮ ರಾಮ ಸೂಕ್ಷ್ಮ ಸ್ವರೂಪ ರಾಮ ರಾಮ ಸುಂದರ ವದನ ರಾಮ ರಾಮ ದಶರಥ ನಂದನ ರಾಮ ರಾಮ ದಯಾಸಾಗರ ರಾಮ ರಾಮ ಪಶುಪತಿ
ಉತ್ತಮ ಉತ್ತಮ ಜಾನಕಾಂತ ಕಾರಣಂ ಭಜನೆ
ರಾಮ
ಗೋಪಿಕಾ ಇದೆಲ್ಲ ಸರ್
ಗೋಪಿಕಾ ಗೋಪಿಕಾ ಅಸ್ತಿ ಇದೆ ಮಂದಿ
ಗೋಪಿಕಾ ಗೋಪಿಕಾ ಗೀತಂ ಗಾತುಂ ಶಕ್ತಿ
ಗೋಪಿಕಾ ಇದಾನೀಂ ಅತ್ರ ನಾಸ್ತಿ
ನಾಸ್ತಿ
ಶ್ರುತಿ
ಭವಂತ
ದೀಂ 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 ನಟನ ಶಿವ ತಾಂಡವ ಕೇಳಿ ವಿಲಾಸ ಶಿವ ಮಾನುಷ ವೇಷ ಶಿವ ಲಿಂಗೋದ್ಭವ ಶಿವ ಸಾಂಬ ಶಿವ ಸಾಂಬ ಶಿವ ಸಾಂಬ ಶಿವ ಸದಾ ಶಿವ ಸಾಂಬ ಶಿವ ಸಾಂಬ ಶಿವ ಸಾಂಬ ಶಿವ ಸದಾ ಮಜೇಶ್ರೀ ಸಾಂಬ ಶಿವ
ಧನ್ಯವಾದ ಶಾರ್ವರಿ ಶಾರ್ವರಿ
నాయకం విఘ్నహరం భజ గజాననం ఉమాసుతం హరం భజ గజాననం మూషిక వాహన గజాననం మోదక హస్త గజాననం ఏకదంతం వినాయకం విఘ్నహరం భజ గజాననం చామర కర్ణ గజాననం లంబిత సూత్ర గజాననం వామన రూప గజాననం మహేశ్వర పుత్ర గజాననం విఘ్న వినాయక గజాననం పాద నమస్తే గజాననం ఏకదంతం వినాయకం నహరం భజ గజాననం.
అతి ఉత్తమం, ధన్యవాదాలు. అతి ఉత్తమం. నీ కోపి సంతి వాత్ర గాతుం. Anybody else wants to sing a bhajan? We have two more minutes to go. Okay, let's sing one Anjaneya bhajan today now. Jai Hanuman. Okay, and someone please sing with me. Okay. Okay, Sharvari, can you please sing with me? జయ హనుమాన్ జయ హనుమాన్ జయ
జయ హనుమాన్ జయ హనుమాన్ జయ హనుమాన్ జయ జయ హనుమాన్
జయ హనుమాన్ జయ హనుమాన్ జయ హనుమాన్ జయ హనుమాన్
జయ హనుమాన్ జయ హనుమాన్ జయ జయ హనుమాన్ జయ హనుమాన్
రామ లక్ష్మణ జానకి జయ జయ
రామ లక్ష్మణ జానకి జయ జయ
బోలో జయ హనుమాన్ కి జయ జయ
बोलो हनुमान की जय जय
बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
राम लक्ष्मण जानकी जय जय बोलो जय हनुमान की जय जय
राम लक्ष्मण जय हनुमान बोलो
राम लक्ष्मण जानकी जय जय
राम लक्ष्मण जानकी जय जय
बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
राम लक्ष्मण जानकी जय जय
राम लक्ष्मण जानकी जय जय
बोलो जय हनुमान की जय जय
बोलो हनुमान की
बोलो हनुमान की जय बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
बोलो जय हनुमान की जय जय
जय हनुमान जय हनुमान जय जय हनुमान जय हनुमान
जय हनुमान जय हनुमान जय हनुमान जय हनुमान
जय हनुमान जय हनुमान जय जय हनुमान जय हनुमान
जय हनुमान जय हनुमान जय जय हनुमान जय हनुमान
जय जय हनुमान जय हनुमान
जय जय हनुमान जय हनुमान
जय जय हनुमान जय हनुमान
जय जय हनुमान जय हनुमान
धीर शूर धीर पराक्रम आंजनेय स्वामी की जय जस्ट से जय धीर शूर धीर आंजनेय स्वामी की
जय
कांत स्मरणम यट से जय जय राम राम जानकी कांत स्मरणम
జయ జయ రామ రామ
పార్వతీ పతయే యట్ సే హర హర మహాదేవ
హర హర మహాదేవ
గోవిందా జీవన స్మరణం గోవిందా
గోవిందా గోవిందా
స్వామికి
జయ
ఆంజనేయ స్వామికి
జయ
భక్త మండలికి
జయ
భక్త సాధు మండలికి
జయ
బ్రహ్మైవ సత్యం ఓ బ్రహ్మైవ సత్యం ఓ రామ 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 సర్వేభ్య ధన్యవాదాలు. థ్యాంక్స్ ఫర్ అటెండింగ్ ది క్లాస్ టుడే. నెక్స్ట్ సెషన్ అవర్ నెక్స్ట్ క్లాస్ విల్ బి
నెక్స్ట్ వీక్
ఆన్ 26th 26th of January, which will be a Republic Day in India. Thanks for joining. Swasti prajabhyah paripalayanta nyayena margena mahim mahishah bhogam vamastu nityam loka samasta sukhino bhavantu loka samasta sukhino bhavantu loka samasta sukhino bhavantu. Venkat Mohodaya, ghoshana asti va udghoshana asti va?
Kimapi nasti.
ராம் ராம் ராம்
இல்ல இந்த கடைசி ஸ்லோகம் சொல்றேன் முடிக்கிறது.
சாரி,
when you end the session you say a slogan, right?
ஸ்வஸ்தி ப்ரஜாப்ய.
ராம் 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 ரா